शतमानम् भवति शतायः पुरुषः शतेन्द्रिय आयश्चेवेन्द्रिये प्रत्यतिष्ठति सुमङ्गलीरियम् वदोरिमागम् समे तपश्यत सोवाग्यमस्त्वे दत्त्वा यातातम् विपरेतना इष्टकाम्यार्थफलसिद्धिरस्तु।